गणानां त्वा गणपतिगं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामभित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृढया याते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्दमया गिरिशन्दाभिचाकशीः यामिषं गिरिशन्दहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रतां कुरु माहिकंसीः पुरुषं जगत् शिवेन वचसा त्वा गिरिशाच्च वदामसि यथा नः सर्वमिज्जगद यक्ष्मगं सुमना असत् अद्य वोचत दिवक्ता प्रथमो दैव्योऽभिषक् अहीकश्च सर्वाञ्जम्भयन् सर्वा आशयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागं रुद्रा अभितो दिक्षुश्रुता सहस्रशो वै शोगं हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्न दृशन्नुत हार्यः उतैनं विश्वा भूतानि सदृष्टो मृढयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेधुषे अधो ये अस्य सत्त्वानो हन्तेभ्यो करं नमः प्रमुञ्ज धन्वनस्त्वमुभयोरात्मियोर्ज्या याश्च ते हस्त इषवः पराता भगवो वपा अवतत्यधनुस्त्वगं सहस्राक्षशतेषु धे निशीर्यशल्यानां मुखा शिवो नः सुमना भवा विज्यं धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतर्मेधुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाददाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अधोय इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनाम् पतये नमो नमः स्वस्पिञ्जराय त्विषीमते पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपभीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततामिने क्षेत्राणाम् पतये नमो नमः सूताया हन्द्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नमः उच्चैर्घोषाया क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णभीधाय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाविभ्यो जिघागम् सद्भ्यो मुष्णता पतये नमो नमो श्रीमद्भ्यो नक्तञ्जरभ्यः प्रगृन्दानाम् पतये नमो नमः उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नमः इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नमः आतन्वानेभ्य प्रतिददानेभ्यश्च वो नमो नमः आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नमः आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नमः उगणाभ्यस्त्रगम् हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो రథేభ్యో రథపతిభ్యశ్చ భో నమో నమః సేనాభ్యసేనానిభ్యశ్చ భో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ భో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ భో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ భో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ భో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమశ్వభ్యశ్వపదిభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మేధుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవేతాధిరాయ చ నమః శీఘ్రయాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జఘన్యాయ చ బుధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో నిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూత్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషందాయ చ నమః కూప్యాయ చ భట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఇంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంగరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూల్యాయ చ నమః పార్యాయ చ భార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ నాద్యాయ చ నమః షష్ప్యాయ చ ఫేన్యాయ చ నమః సిగత్యాయ చ ప్రవాహ్యాయ చ నమః హిరణ్యాయ చ ప్రపద్యాయ చ నమః కిగం శిలాయ చ క్షయణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్ధ్యాయ చ నమో పగురమాణాయ చాభిఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విజిన్వత్కేభ్యో నమ ఆనర్హతేభ్యో నమ ఆమే వత్కేభ్యః ద్రాపే అంధతస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మా భేర్మా రోమో ఏషాం కింజనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాహ భేషజే శివా రుద్రస్య భేషజే తయా నో మృడ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్ధినే శయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమసద్విపతే చతుష్పతే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృఢానో రుద్రోతనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం సయోస్య మనురాయ జే పితా తదశ్యామతవ రుద్ర ప్రణీతౌ మానో మహాందముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధే పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీర్షః మానస్తోకేతన హే మాన ఆయుషి మానో గోషు మానో అశ్వేషురీర్షః వీరాన్ మానో రుద్రభామితో వధిర్ హవిష్మందో నమసా విధేమతే ఆరాతే గోఘ్న ఉత పూరుషగ్ని శయద్వీరాయ సుం నమస్మేతే అస్తో రక్షా చ నో అధి చ దేవ బ్రూహ్యతా చ న శర్మ యచ్చ ద్విపర్హా స్తుకి శ్రుతం గర్త సదం యువానం మృగన్న భీమముపహద్రుముగ్రం మృఢా చరిత్రే రుద్రస్తవాను అన్యందే అస్మన్నివ బంధు సేనా పరిణో రుద్రస్య హేతర్వృణక్తు పరిద్వేషస్య దుర్మతిరఘాయోః అవస్థిరా మగవద్భ్యస్తనుష్వమీధ్వస్తోకాయతనయాయ మృఢయా మేధుష్టమ శివతమ శివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్తి వసాన ఆచర పినాకం బిభ్రదాగహీ వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగం హేతయోన్యమస్మన్నివ బంధుతాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనా ముఖాకృతి సహస్రాణి సహస్రశోయి రుద్రా అధిభూమ్యా तेषागं सहस्रयो जने वधन्वा निधन्मसि अस्मिन् महत्यर्णवे एतरिक्षे भव अधि नीलग्रीवा श्रुतिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कपर्धिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदायव्युतः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वधन्वा निधन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् एन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिण दश प्रतेचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृढयम् धृतेयम् विष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्रयम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सुय ओषधीषु यो रुद्रो विश्वा भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे एषजो यगम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः शं च मे मयश्च मे प्रियम् च मेनु कामश्च मे सौ मनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्दा च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तुद्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेतगुम् सर्वम् यद्भूतैयच्च भव्यम् उतावृतत्वस्येषा नः यदन्नेनाधिरोहति एतावानस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्दो अस्यासीराज्यम् ग्रीष्मयित्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तः समिध कृताः देवा यद्यज्ञम् तन्वानाः अपत्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्दा साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदार्ज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्याग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रजः सामानि जज्ञिरे छन्दाकंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयाततः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिदा व्यकल्पयन् मुखम् किमस्य कौ बाहु काहूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रीष्णौद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विजित्य धीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्धा अयनाय विद्यते yajnena yajnamaya janda devah tani dharmani prathamanyasan te hanakam abhimanasya chande yatra pure sadhyasanti devah adhyasambhoda prathivyairasasa vishwakarmanasamavartadadhi tasya tvashta vidadadrupameti tatpurushasya vishwamajanamagre vedahametam purusham mahantam adityavarnam tamasaparastad tamevam vidvanamrta iha bhavati nanya pandha vidyate yanaya prajapatischarati garbhe antaha ajayamano bahudha vijayate tasya dhira parijanandiyonim marichinam padamichandi vedasaha yo devebhya atapati yo devanam purohitaha purvo yo devebhyo jataha namo ruchaya brahmaye rucham brahmam janayantaha deva agre tatabhruvan yastvaivam brahmano vidyat tasya deva asanvase hrishyate lakshmi chapatnyo aho ratre parshve nakshatrani rupam ashvinau vyattam ishtam manishana amum manishana sarvam manishana tachayyo ravrini mahe gatayajnaya gatayajnapataye daivee swastirastu naha swastarmanushebhyaha urdham jikatu bheshajam shanno astu dvipade shanchatushpade om shandhi 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 om bhadram karne bhishranuyama deva bhadram pashye maksha bharya chatra sthirai rangai sushtu vagam sastano bhihi vyashema deva hidayatayuh swasti na indra vriddha shrava swasti na pusha vishwaveda swasti na starkshu arishtanemihi swasti no brihaspatir dadhatu om shandhi 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 om namaste ganapataye tvameva pratyaksham tattvamasi tvameva kevalam kartasi tvameva kevalam dhartasi tvameva kevalam hartasi tvameva sarvam khalvidam brahmasi tvam sakshadatmasi nityam ritam vachmi satyam vachmi avatvam mam avabhaktaram avashrotaram avadataram avadhataram avanochanam avashishyam avapashchataat avapurastaat avottarataat avadakshinataat avachordhvataat avadharataat sarvato mam pahi pahi samandat Tvam Vamayas Tvam Chinmayaha Tvam Anandamayas Tvam Brahmamayaha Tvam Satchidananda Dvitiyosi Tvam Pratyaksham Brahmasi Tvam Jnanamayo Vijnanamayosi Sarvam Jagadidam Tvatto Jayate Sarvam Jagadidam Tvattvastishtati Sarvam Jagadidam Tvayilayameshati Sarvam Jagadidam Tvayipratyeti Tvam Bhumirapo Nalo Nilo Napaha Tvam Chattvariva Atpadani Tvam Gunatrayatitaha Tvam Avastatrayatitaha Tvam Dehatrayatitaha Tvam Kalatrayatitaha Tvam Mooladharastitosi Nityam Tvam Shaktitrayatmakaha Tvam Yogino Dhyayanti Nityam Tvam Brahma, Tvam Vishnastam, Rudrastam, Indrastam, Agnistam, Vayustam, Suryastam, Chandramastam, Brahma Bhurbhuvasvarum. Ganadim Purvamucharya, Varnadim Sadanandaram, Anusvara Parataraha, Arthe Endulasitam, Tarena Rudram, Edattava Manusvarupam, Gakara Purvarupam, Akaro Madhyamarupam, Anusvarasya Andhyarupam, Binduruttararupam, Nadasandhanam, Sagumhita Sandhihi, Saisha Ganesha Vidya Ganaka Rishihi Nidrat Gayatri Chandaha Ganapatir Devata Om Gam Ganapataye Namaha Ekadandaya Vidmahe Vakratundaya Dhimahi Tanno Dandiv Prachodayat Eka dandam chatar hastam Pashamangva shadharinam Ratam chavaradam haste Vibranam moshagadvajam Raktam lambodaram Shurpakarnakam raktavasasam Raktagandhanuliptangam Raktapushpai supujitam Bhaktanukambinam devam Jagatkaranamachyutam Avirbhutam cha srishtadu prakriti purushatparam evam dhyayati yo nityam sayogi yoginam varaha namo vratapataye namo ganapataye nama pramadapataye namaste stulambodarayai kadandaya vignanashini shivasutaya varadamurtaye namaha Om Shanti 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 Om Sahana Bhavatu Sahanau Bhunaktu Sahaviryam Karavavahai Tejasvinavadhetamastumavidvishavahai Om Shanti 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 Atha Purushoha Vai Narayano Kamayata Prajasrije Yeti Narayanat prano jayate manas sarvendriyani cha khambayur jyotirabha prithivi vishvasya dharini Narayanat brahma jayate Narayanat rudro jayate नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रा वसव सर्वाणि च छन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगम् सर्वम् यद्भूतै यच्च भव्यम् निष्कळो निरञ्जनो निर्विकल्पो निराख्यातशुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवम् वेदा स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनबभ्रुवः सर्वमायुरेति विन्दते प्राजापत्यगम् रायस्पोषम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत य एवम् वेदा प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति ताने गधा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मादिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मो एतददर्वशिरो योधीते प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायमधीयानो दिवसकृतम् पापम् नाशयति माध्यन्दिनमादित्याभिमुखो धीयान् पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेदा इत्युपनिषत् ॐ शान्ति शान्ति शान्तिः सहस्रपरमा देवी शतमूला शताङ्गुरा सर्वगुं हरतु मे पापम् दुर्वादुःस्वप्ननाशिनी काण्डात् काण्डात् प्ररोहन्ति परुषः परुषः परे एवानो दूर्वे प्रतनु सहस्रेण शतेन च या शतेन प्रतनोषि सहस्रेण विरोहसि
तस्या आस्ते देवेष्टके विधेमह विशावयम् अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महे महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति